इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। आदौ मुख्य वार्ताः। अद्य सर्वकारेण फॉस्फेटिक तथा पोटेसिक उर्वरकयोः कृते अस्य वर्षस्य ग्रैष्मिक इति खरीफ सस्यानां कृते पोषक आधारित अनुदान मूल्यानि अनुमोदितानि। सहैव एकचत्वारिंशत् किलोमीटर सुदीर्घं जयपुर मेट्रोफेज द्वितीयमपि अनुमोदितम्। पश्चिम एशिया द्वन्द्वस्य मध्ये सम्पूर्णे देशे खनन क्षेत्रेषु ऊर्जा केन्द्रेषु च कृष्णाङ्गारस्य पर्याप्तः भण्डारः वर्तते इति अद्य प्रशासनेन दृढीकृतम्। भारतेन अमेरिका ईरान देशयोः मध्ये जातस्य सन्धेः स्वागतं कृतम्। उक्तं च यत् पश्चिम एशिया देशे चिरस्थायी शान्तिः आगमिष्यति। आरबीआई इत्यनेन बैंकेन रेपो रेट अपरिवर्तितमेव स्थापितं। वर्तमानस्य वित्तवर्षस्य कृते देशस्य वास्तविकं जीडीपी इति वृद्धिः 9.6% सम्भावनापि प्रकटिता। प्रधानमन्त्री मुद्रा योजनायाः 11 वर्षाणां पूर्त्यवसरे प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् योजनैषा यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थम् अत्यधिकं लाभप्रदं सिद्धं चास्ति। अपि च श्वः असम केरलं केन्द्रशासित पुदुच्चेरी प्रदेशेषु विधानसभा निर्वाचनाय सर्वाः सज्जताः सम्पन्नाः। अथ वार्ताः विस्तरेण। अद्य सर्वकारेण फॉस्फेटिक तथा पोटेशिक उर्वरकयोः कृते अस्य वर्षस्य ग्रैष्मिक इति खरीफ सस्यानां कृते पोषक आधारित अनुदान मूल्यानि अनुमोदितानि। नवदिल्ल्यां प्रसारमाध्यमान् सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् अस्य वर्षस्य खरीफ सत्रस्य कृते प्रायः 35,000 करोड़ रूप्यकाणां तात्कालिक आयव्ययकेत्यस्य आवश्यकता भविष्यति। सः अवदत् यत् अनेन कृषकाणां कृते सुलभमूल्येन उर्वरकानाम् उपलब्धता सुनिश्चितं भविष्यति।
खरीफ सीजन के लिए न्यूट्रिएंट बेस्ड सब्सिडी जिसमें 41,000 करोड़ रुपए का ये कंप्लीट सब्सिडी का प्रोग्राम है। सेकंड, राजस्थान में जो पचपदरा बालोतरा जिले में रिफाइनरी बन रही है उससे रिलेटेड कुछ फैसले हुए हैं जो 79,000 करोड़ रुपीज से रिलेटेड है सारा। तीसरा, जयपुर में मेट्रो का फेज 2 इसके लिए 13,000 करोड़ रुपए का आवंटन हुआ है। चौथे और पांचवे दोनों हमारे नॉर्थ ईस्ट में 2 हाइड्रो पावर प्लांट्स हैं।
प्रहलादपुरतः टोडीमोड़पर्यन्तम् 41 किलोमीटर सुदीर्घस्य जयपुर मेट्रो फेज द्वितीयस्यापि सर्वकारेण अनुमोदनं कृतम्। श्रीवैष्णवः अवदत् यत् अस्मिन् 36 स्थानकानां समावेशः भविष्यति तथा च अस्यां परियोजनायां 13,000 करोड़ रूप्यकाणां व्ययोऽपि भविष्यति। एषा परियोजना राजस्थान मेट्रो रेल कॉर्पोरेशन लिमिटेड इत्यनेन कार्यान्वितं भविष्यति यत् भारत सर्वकारस्य राजस्थान सर्वकारस्य च समान संयुक्त उद्यमः अस्ति। पश्चिम एशिया द्वन्द्वस्य मध्ये सम्पूर्णे देशे खनन क्षेत्रेषु ऊर्जा केन्द्रेषु च कृष्णाङ्गारस्य पर्याप्तः भण्डारः वर्तते इति अद्य प्रशासनेन दृढीकृतम्। नवदिल्ल्यां पश्चिम एशियायाः वर्तमानस्थित्याम् अन्तामन्त्रालयीय विवरणं सम्बोधयन् अङ्गारमन्त्रालयस्य संयुक्तसचिवः सञ्जीवकुमारकस्येत्यशः अवदत् यत् अङ्गारकस्य मूल्ये वृद्धिः नाभवत्। पेट्रोलियम प्राकृतिक गैस मन्त्रालयस्य संयुक्तसचिवा सुजाता शर्मा इत्येषा अवदत् यत् सम्पूर्णे देशे एलपीजी पेट्रोल डीजल इन्धनानि पर्याप्तमात्रायाम् उपलभ्यन्ते, सामान्याः आपूर्तयः अपि प्रचलन्ति।
घरेलू एलपीजी की सप्लाई नॉर्मल है, सभी डिस्ट्रीब्यूटर्स के पास पर्याप्त स्टॉक अवेलेबल है, कहीं कोई ड्राई आउट रिपोर्टेड नहीं है। लगभग 95% बुकिंग ऑनलाइन हो रही है और लगभग 91% रिफिल की डिलीवरी डीएसी कोड के साथ हो रही है और ये 91% जो फिगर है वो ये इंश्योर करता है कि डाइवर्जन न हो।
अमेरिका ईरान देशयोः मध्ये जातस्य सन्धेः भारतेन स्वागतं कृतम्। एकस्मिन् वक्तव्ये विदेशमन्त्रालयेन आशा प्रकटिता यत् अनेन पश्चिम एशिया देशे चिरस्थायी शान्तिः होर्मुज जलसन्धिना नौवहनस्य निर्वाध्यावगमनं वाणिज्यस्य वैश्विक प्रवाहः च भविष्यति। मन्त्रालयः अवदत् यत् भारतं निरन्तरं युद्धविरामाय संवादं कूटनीतिं च समर्थयति यत् संघर्षस्य शीघ्र समाप्त्यर्थं आवश्यकम् अस्ति। मन्त्रालयेन उक्तं यत् विवादेन पूर्वमेव जनेषु महती क्लेशः अभवत्, वैश्विक ऊर्जा आपूर्तिः, व्यापारजालानि च बाधितानि सन्ति। अत्रान्तरे ईरान देशस्य स्थित्यानुसारं ईरान देशे भारतीय दूतावासेन सम्प्रति ईरान देशे स्थितेभ्यः भारतीय नागरिकेभ्यः दूतावासेन सह समन्वयेन दूतावासेन सूचितान् मार्गान् उपयुज्य ईरान देशात् शीघ्रं निर्गन्तुं सूचितमस्ति। परामर्शपत्रे उक्तं यत् दूतावासेन सह पूर्व परामर्शेन समन्वयेन च विना कस्यापि अन्ताराष्ट्रिय स्थल सीमायां प्रविष्टुं प्रयासः न करणीयः। अत्रान्तरे आधिकारिक सूचनानां स्थितिं निकटतया निरीक्षितुं भारतीय नागरिकान् दूतावासेन उक्तम्। सहैव धन 989128010911 धन 989128010911 इति चलदूरभाष संख्यासु दूतावासेन सह संपर्कं कर्तुं शक्यते। सहैव दूतावासस्य ईमेल संकेतः अस्ति cons.tehran@mea.gov.in इति। प्रियाः श्रोतारः, संस्कृतवार्तायाः संस्करणमिदं इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज़ ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। भारतीय रिजर्व बैंकेन 5.25% यावत् वृद्धिमानम् अपरिवर्तितम् एव स्थापितम्। वर्तमानस्य वित्तवर्षस्य प्रथमस्य द्वैमासिकस्य मौद्रिक नीतेः घोषणां कुर्वन् आरबीआई अध्यक्षः संजय मल्होत्रा अद्य अवदत् यत् मौद्रिक नीति समितिः सर्वसम्मत्या तटस्थ स्थित्या रेपो दरं 5.25% स्थापयितुं निर्णयम् अकरोत्। परिणामस्वरूपेण स्थायी निक्षेप सौविध्य दरः 5% भविष्यति, तथा च सीमांत स्थायी सौविध्य दरः बैंक दरश्च 5.50% यावत् भविष्यति। मुद्रानीति समितेः अपेक्षा अस्ति यत् गत वित्तवर्षस्य जीडीपी इति सकल गृह उत्पादं 6.7% यावत् च भविष्यति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् प्रधानमन्त्री मुद्रा योजना यूनां मध्ये स्वजीविकोपार्जनं संवर्धनार्थम् अत्यधिकं लाभप्रदं सिद्धं च अस्ति। 15.2 वर्षे आरब्धा इयं योजना अद्य 11 वर्षाणि पूरयति। सामाजिकान्तर्जालीये सन्देशे श्रीमोदी अवदत् यत् योजनायाः सफलतया ज्ञायते यत् यदा जनान् समुचितानि अवसराणि प्रदीयन्ते तदा ते स्वावलम्बी भवितुं शक्नुवन्ति। राष्ट्रस्य प्रगतेः कृते महत्वपूर्णं योगदानं च दातुं शक्नुवन्ति। अद्यावधि प्रधानमन्त्री मुद्रा योजनायाः अन्तर्गतं प्रायः 58 कोटि रूप्यकाणि ऋणानि स्वीकृतानि सन्ति। श्वः असम केरलं केन्द्रशासित पुदुच्चेरी प्रदेशेषु विधानसभा निर्वाचनाय सर्वाः सज्जताः सम्पन्नाः। असमराज्ये 26 आसनानां कृते, केरलं राज्ये 44 आसनानां कृते, पुदुच्चेरी राज्ये च 30 आसनानां कृते निर्वाचनं भविष्यति। स्वतन्त्रं निष्पक्षं शान्तियुतञ्च मतदानं सुनिश्चेतुं सुरक्षाव्यवस्थाः दृढीकृतानि, प्रशासनिक उपायानि च प्रयुञ्जन्ते। एतदतिरिच्य तमिलनाडुराज्ये एकचरणीय मतदानस्य, पश्चिमबंगालराज्ये च प्रथमचरणस्य मतदानस्य नामांकनपत्राणां प्रत्यावर्तनस्यापि श्वः अन्तिमा तिथि अस्ति। पश्चिमबंगालराज्ये द्वितीयस्य चरणस्य नामांकनपत्रस्य कृते अपि श्वः एव अन्तिमः दिवसः वर्तते। आईपीएल क्रिकेट क्रीडायाम् अद्य दिल्ल्याः अरुण जेटली क्रीडांगणे दिल्ली कैपिटल्स दलं गुजरात टाइटन्स दलं सम्मुखीकरिष्यति इति वार्ताः।